You are listening to the Agastya R. Bhavantaha Agastya Satram Shrinvanti.
On the occasion of Rama Navami, the students of Agastya Gurukulam will be presenting Rama Geetam, Rama Bhajanam and Rama Stotrani. Adhuna Agastya Gurukulasya Vakyavargasya Chhatra Pavitra Rama Geetam Gayati.
Rama Bhadra Raghuvira Ravivamsha Tilaka Neenama Me Kamadhenu Namo Namo Rama Bhadra Raghuvira Ravivamsha Tilaka Neenama Me Kamadhenu Namo Namo Rama Bhadra Raghuvira कौसल्यानन्दवर्धन घनदशरथसुत भासुरयज्ञरक्षक भरताग्रज कौसल्यानन्दवर्धन घनदशरथसुत भासुरयज्ञरक्षक भरताग्रज रासिकिक्ककोदण्डरचन विद्या गुरुवा వాసితో సురలోనిను పదిమిచ్చేరయ్యా వాసితో సురలోనిను పదిమిచ్చేరయ్యా రామభద్ర రఘువీర రవివంశతిలక నీ నామమే కామధేనుః నమో నమో రామభద్ర రఘువీర మారీచసుబాహు మర్దన తటకాంతక మారీచసుబాహు మర్దన తటకాంతక దారుణ వీరశేఖర ధర్మపాలక కారుణ్యరత్నాకర కాగాసురవరధ సాహి కువేదములు జయ విట్టేరయ్యా సాహికు వేదములు జయ విట్టేరయ్యా రామభద్ర రఘువీర రవివంశతిలక నీ నామమే కామధేనుః నమో నమో రామభద్ర రఘువీర సీతారమణ రాజశేఖర శిరోమణి భూతల పుటయోధ్యా పురనిలయా సీతారమణ రాజశేఖర శిరోమణి భూతల పుటయోధ్యా పురనిలయా ఈతల శ్రీ వెంకటాద్రి నిరవైన రాఘవ ఘాతని ప్రతాపమిల్లై కడునిండేనయ్యా ఘాతని ప్రతాపమిల్లై కడునిండేనయ్యా రామభద్ర రఘువీర రవివంశతిలక నీ నామమే కామధేనుః నమో నమో రామభద్ర రఘువీర
नमस्ते, मम नाम शंकरनारायणः, अहम् अगस्त्यगुरुकुले पठामि, अहम् इदानीं हनुमत्कृतसीतारामस्तोत्रं वदामि, एतस्य स्तोत्रस्य विशेषता अस्ति यत् आञ्जनेयः एतस्मिन् स्तोत्रे प्रथमतृतीयपादयोः रामस्य गुणान् वदति, अपि च द्वितीयचतुर्थपादयोः सीतायाः गुणान् वदति अथ हनुमत्कृतसीतारामस्तोत्रम् अयोध्यापुरनेतारं मिथिलापुरनायिकां राघवाणामलङ्कारं वैदेहानामलङ्क्रियां रघूणां कुलदीपं च निमीनां कुलदीपिकां सूर्यवंशसमुद्धूतं सोमवंशसमुद्भवां पुत्रं दशरथस्याद्यं पुत्रीं जनकभूपतेः वशस्थानुमताचारं शतानन्दमतानुगां कौसल्यागर्भसम्भूतं वेदिगर्भोदितां स्वयं पुण्डरीकविशालाक्षं स्फुरदिं देवरेक्षणां चन्द्रकान्ताननां भोजं चन्द्रबिम्बोपमाननां मां मत्तमातङ्गमगमनं मत्तहंसवधूगतां चन्द्रनार्द्रभुजामध्यं कुङ्कुमार्द्रकुचस्थलीं चापालङ्कृतहस्ताब्जं पद्मालङ्कृतपाणिकां शरणागतगोप्तारं प्रणिपादप्रसादिकां कालमेघनिभं रामं कार्तस्वरसमप्रभां दिव्यसिंहासनासीनं दिव्यस्रग्वस्त्रभूषणाम् अनुक्षणं कटाक्षाभ्याम् अन्यान्येक्षणकां क्षणौ अन्यान्यसदृशाकारौ त्रैलोक्यगृहदम्पती इमौ युवां प्रणम्याहं भजां यज्ञकृतार्थताम् अनेन स्तौ तेजस्तुत्यं रामं सीतां च भक्तितः तस्य तौ तनुतां पुण्याः सम्पदः सकलार्थता एवं श्रीरामचन्द्रस्य जानक्याश्च विशेषतः कृतं हनूमता पुण्यं स्तोत्रं सद्यो विमुक्तिदं यः पठेत् प्रातरुत्थाय सर्वान् कामानवाप्नुयात् इति हनूमत्कृतसीतारामस्तोत्रम्।
अधुना अगस्त्यगुरुकुलस्य अक्षरवर्गस्य छात्रा नन्दिनी रामगीतं गायति।
कर कञ्जपद कञ्जारुणं श्रीराम श्रीराम दर्प गणित अमित छवि तव नील नीलद सुन्दरं पटपीत शुचि नौमि जनक सुतावरं श्रीरामचन्द्र कृपालु भज मन हरण भव भय दारुणं दीन बंधु दिनेश दानव दैत्य वंश निकंदनं रघुनन्दानन्द कन्द कोसल चन्द्र दशरथ नन्दनं श्रीरामचन्द्र कृपालु भज मन हरण भव भय दारुणं श्रीराम श्रीराम रमुकूट तिलक चारु उदारांग विभूषणं आजादु भुज शर चापधर संग्राम जित कर दूषणं श्रीरामचंद्र कृपालु भज मन हरण भव भय दारुणं श्रीराम श्रीराम वदति तुलसी दास शंकर शेष मुनिवर रंजनं मम हृदय कंज निवास गुरु कामानि कल कल रंजनं श्रीरामचंद्र कृपालु भज मन हरण भव भय दारुणं नवकंज लोचन कंज मुख कर कंज पद कर
Sriram.
Enjoy listening to the Agastya Hour. Is there something you really liked or would like to see in a future episode? Agastya Gurukulam welcomes your feedback either by phone or text message at 919-294-4800 or by email at info@radionaira.com or by online chat messaging at radionaira.com.